Sairam, dear listeners, till now you have heard to the Radio Sai live Telugu broadcast Sri Satya Sai Divya Sindeshchari, presented by Brother Sai Prasad of the Radio Sai Telugu team. Thank you, Brother Sai Prasad, for your beautiful presentation. And this is Team Radio Sai's Ganesh inviting you all to the next segment, the Radio Sai Vedan Tutor. We shall continue learning the Surya Namaskara Mantra, which we had started in the previous week's class. Before going into today's chanting, we will try to learn the meaning of the lines which were learned in the last class. But before we go ahead, we shall start the class with Omkaram and the Ganapati Prarthana.
Gananam Tva Ganapati Gum Havamahe Kavim Kavinam Upamashravastamam Jeshtharajam Brahmanam Brahmanaspata Anashrunvannoti Vissidasadhanam Prano Devi Sarasvati Vajibhir Vajinivati Dhinama Vitriyavatu Ganeshaya Namaha Sarasvatyai Namaha Shri Gurubhyo Namaha Harihi Om
Om Agni Meele Purohitam Yajnascha Deva Mrutvijam Hota Aram Ratnadhatamam Rigvedatmani Surya Narayana Swamine Namaha. We adore Lord Agni, the fire god, the divine, the high priest of the sacrifice or the yajna, the ministrant, the ritvija, who offers the oblation, and also the one who dispenses the reward of the yajna. Here, the Lord is seen as the possessor of great wealth, which he bestows as reward to worthy recipients, and salutations to Lord Surya Narayana, who is the soul of Rigveda, the Lord who is adored in the Rigveda.
Ishe torje tva vayavasto payavasta devo vasavita prarpayatu shreshtatamaya karmani Yajurvedatmane Surya Narayana Swamine Namaha.
We invoke Lord Vayu, the master of life energies, sustainer of human beings, to bestow upon us abundant energy. May God Savitur, or the sun, inspire us to embark upon the noblest of deeds. Salutations to Lord Surya Narayana, who is the soul of Yajurveda, Lord who is adored in the Yajurveda.
Agna ayahe vitaye grnano havyadataye nihota satsi barhishi samavedatmane surya narayana swamine namaha.
O Lord, giver of bountiful gifts, we adore you with dedication. May you reside in our hearts and bestow prosperity upon us. Salutations to Lord Surya Narayana, who is the soul of Samaveda, the Lord who is adored in the Samaveda.
Shanno Devi Ravishtaya Apo Bhavantu Pitaye Shanyo Ravisravantu Naha Atharva Vedatmane Surya Narayana Swamine Namaha.
O Goddess, who fulfills our desires, may we partake of the divine water and attain health and prosperity. Salutations to Lord Surya Narayana, who is the soul of Atharva Veda, Lord who is adored in the Atharva Veda.
Grinas Surya Adityo Na Prabhavatyaksharam Madhuksharam Titadrasam Satyam Vaitadrasamapo Jyotira Somritam Pramhaburpu Vasuvarom Chayasu Vachalam Basameta Shri Suryanarayana Swamine Namaha.
The Eternal, Lord Aditya, the sun, represents the supreme Brahman, who is the Lord of the three worlds, the gross, the subtle, and the causal, and is represented by the Pranava. He is the source of light and life in the universe and pervades the universe with his rays. His energy as heat creates the clouds which come down as rain and flow as rivers. Thus, he is the creator and sustainer of the universe.
Taranir Vishwadarshato Jyotishkritasi Surya Vishwamabhasi Rochanam Upaya Magrahito Sisurya Yatva Brajaswata Yeshate Yonisurya Yatva Brajaswate Chaya Suvacharamba Samita Shri Surya Narayana Swamini Namaha.
O Lord Surya, you are the one whose form is visible to everyone. It is your light which helps us see you and everything else in the universe. You are the origin of all the light of knowledge and radiance of the spirit in this universe. Salutations to Lord Surya Narayana, who is accompanied by his consorts Chaya, the shadow, and Suvarchalamba, or the effulgence. Now we shall go into the learning part of the today's class. I'll chant each line once. Please repeat twice after me. Om Ram.
Om Ram. Om Ram.
Udyannadyamitramahah.
Udyannadyamitramahah. Udyannadyamitramahah.
Mitraya namaha.
Mitraya namaha. Mitraya namaha.
Om Ram. Udyannadyamitramahah. Mitraya namaha.
Om Ram. Udyannadyamitramahah. Mitraya namaha. Om Ram. Udyannadyamitramahah. Mitraya namaha.
Om Hrim.
Om Hrim. Om Hrim.
Arohannuttarandivam.
Arohannuttarandivam. Arohannuttarandivam.
Ravaye namaha.
Ravaye namaha. Ravaye namaha.
Om Hrim. Arohannuttarandivam. Ravaye namaha.
Om Hrim. Arohannuttarandivam. Ravaye namaha. Om Hrim. Arohannuttarandivam. Ravaye namaha.
Om Hrum.
Om Hrum. Om Hrum.
Rudrogam mama Surya.
Rudrogam mama Surya. Rudrogam mama Surya.
Suryaya namaha.
Suryaya namaha. Suryaya namaha.
Om Hrum. Rudrogam mama Surya. Suryaya namaha.
Om Hrum. Rudrogam mama Surya. Suryaya namaha. Om Hrum. Rudrogam mama Surya. Suryaya namaha.
We'll do all these three lines together. Once. Om Ram.
Udyannadyamitramahah. Mitraya namaha. Om Hrim. Arohannuttarandivam. Ravaye namaha. Om Hrum. Rudrogam mama Surya. सूर्याय नमः ॐ ह्रैं
ॐ ह्रैं ॐ ह्रैं
हरिमानं च नाशय
हरिमानं च नाशय हरिमानं च नाशय
भानवे नमः
भानवे नमः भानवे नमः
ॐ ह्रैं हरिमानं च नाशय भानवे नमः
ॐ ह्रैं हरिमानं च नाशय भानवे नमः ॐ ह्रैं हरिमानं च नाशय भानवे नमः
ॐ ह्रौं
ॐ ह्रौं ॐ ह्रौं
शुकेषु मे हरिमानं
शुकेषु मे हरिमानं शुकेषु मे हरिमानं
खगाय नमः
खगाय नमः खगाय नमः
ॐ ह्रौं शुकेषु मे हरिमानं खगाय नमः
ॐ ह्रौं शुकेषु मे हरिमानं खगाय नमः ॐ ह्रौं शुकेषु मे हरिमानं खगाय नमः
We'll do all these lines together once.
ॐ ह्रां उद्यन्नद्य मित्रमहः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरान्दिवम् रवये नमः ॐ ह्रूं रुद्रोदम् मम सूर्या सूर्याय नमः ॐ ह्रैं हरिमानं च नाशय भानवे नमः ॐ ह्रौं शुकेषु मे हरिमानं खगाय नमः ॐ ह्रः
ॐ ह्रः ॐ ह्रः
रोपणाकासुदद्मसि
रोपणाकासुदद्मसि रोपणाकासुदद्मसि
पूष्णे नमः
पूष्णे नमः पूष्णे नमः
ॐ ह्रः रोपणाकासुदद्मसि पूष्णे नमः
ॐ ह्रः रोपणाकासुदद्मसि पूष्णे नमः ॐ ह्रः रोपणाकासुदद्मसि पूष्णे नमः
We'll do all these things together.
ॐ ह्रां उद्यन्नद्य मित्रमहः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरान्दिवम् रवये नमः ॐ ह्रूं रुद्रोगम् मम सूर्या सूर्याय नमः ॐ ह्रैं हरिमानं च नाशय भानवे नमः ॐ ह्रौं शुकेषु मे हरिमानं खगाय नमः ॐ ह्रः रोपणाकासु दद्मसि पूष्णे नमः ॐ ह्रां
ॐ ह्रां ॐ ह्रां
अथो हारिद्रवेषु मे
अथो हारिद्रवेषु मे अथो हारिद्रवेषु मे
हिरण्यगर्भाय नमः
हिरण्यगर्भाय नमः हिरण्यगर्भाय नमः
ॐ ह्रां अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः
ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः
ॐ ह्रीं
ॐ ह्रीं ॐ ह्रीं
हरिमानन्निदद्मसि
हरिमानन्निदद्मसि हरिमानन्निदद्मसि
मरीचये नमः
मरीचये नमः मरीचये नमः
ॐ ह्रीं हरिमानन्निदद्मसि मरीचये नमः
ॐ ह्रीं हरिमानन्निदद्मसि मरीचये नमः ॐ ह्रीं हरिमानन्निदद्मसि मरीचये नमः
ॐ ह्रूं
ॐ ह्रूं ॐ ह्रूं
उदगादयमादित्यः
उदगादयमादित्यः उदगादयमादित्यः
आदित्याय नमः
आदित्याय नमः आदित्याय नमः
ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः
ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः
We'll do all these three lines together.
ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमानन्निदद्मसि मरीचये नमः ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः
ॐ ह्रैं ॐ ह्रैं ॐ ह्रैं
विश्वेन सहसा सह
विश्वेन सहसा सह विश्वेन सहसा सह
सवित्रे नमः
सवित्रे नमः सवित्रे नमः
ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः
ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः
ॐ ह्रौं
ॐ ह्रौं ॐ ह्रौं
द्विषन्तं मम रन्धयन्
द्विषन्तं मम रन्धयन् द्विषन्तं मम रन्धयन्
अर्काय नमः
अर्काय नमः अर्काय नमः
ॐ ह्रौं द्विषन्तं मम रन्धयन् अर्काय नमः
ॐ ह्रौं द्विषन्तं मम रन्धयन् अर्काय नमः ॐ ह्रौं द्विषन्तं मम रन्धयन् अर्काय नमः
ॐ ह्रः
ॐ ह्रः ॐ ह्रः
मो अहं द्विषतो रथम्
मो अहं द्विषतो रथम् मो अहं द्विषतो रथम्
भास्कराय नमः
भास्कराय नमः भास्कराय नमः
ॐ ह्रः मो अहं द्विषतो रथम् भास्कराय नमः
ॐ ह्रः मो अहं द्विषतो रथम् भास्कराय नमः ॐ ह्रः मो अहं द्विषतो रथम् Bhaskaraya Namaha.
We'll do all these seven lines together.
Om Hram Atho Haridraveshu Me Hiranyagarbhaya Namaha. Om Hrim Harimanannidadmasi Marichaye Namaha. Om Hrum Udagadayamadityaha Adityaya Namaha. Om Hraim Vishvena Sahasa Saha Savitre Namaha. Om Hraum Vishantam Mamarandayanna Arkaya Namaha. Om Raha Mo Aham Dishatoratham Bhaskaraya Namaha.
From the beginning, we'll do all these lines together once.
Om Hram Udyanadya Mitramaha Mitraya Namaha. Om Hrim Arohannuttarandivam Ravaye Namaha. Om Hrum Rudrodam Mama Surya Suryaya Namaha. Om Hraim Harimananchanashaya Bhanave Namaha. Om Hraum Shukeshu Me Harimanam Kharaya Namaha. Om Hraha Ropanata Sudadmasi Pushme Namaha. Om Hram Atho Haridraveshu Me Hiranyagarbhaya Namaha. Om Hrim Harimanannidadmasi Marichaye Namaha. Om Hrum Udagadayamadityaha Adityaya Namaha. Om Hraim Vishvena Sahasa Saha Savitre Namaha. Om Hraum Vishantam Mamarandayanna Arkaya Namaha. Om Raha Mo Aham Dishatoratham Bhaskaraya Namaha.
We shall end with Kshama Prarthana Mantra.
Yadakshara Parabhrashtam Matra Hinam Tuyad Bhavet Tatsarvam Kshamyatam Deva Narayana Namostute Visargavindu Matrani Padapadaksharani Cha Nunani Cha Tiriktani Kshamasvasayishvara Aparada Sahasrani Kriyante Harnishammaya Tasoyam Iti Mamatva Kshamasvasayishvara Anyatha Sharanam Nasti Tvameva Sharanam Mama Tasmat Karunya Bhavena Raksha Raksha Saishwara Hari Om Tat Sat Sri Saishwara Arpanamastu.
With this we come to an end to this week's Radio Sai Vedam Tutor class. In the coming class we shall continue with the Surya Namaskara Mantram. From a few moments from now you will listen to the live broadcast of the Vedam and the Bhajans from the Sai Kulwant Hall. Sai Ram and happy listening.